Book 2
59
59
Ở bưu điện
Đạc ghar mein
Bưu điện gần nhất ở đâu?
अगला डाक घर कहाँ है?
Đến bưu điện gần nhất có xa không?
क्या कोई और डाक घर नजदीक में है?
थुंग
थु गन नहत ở đâu?
सबसे नजदीक डाक पेटी कहाँ है?
Tôi cần vài cái tem.
मुझे कुछ डाक टिकट चाहिए.
Cho một cái thiếp và một bức thư.
एक पोस्टकार्ड और एक पत्र के लिए.
Cước phí sang Mỹ bao nhiêu tiền?
अमेरिका के लिए डाक शुल्क कितना है?
Bưu phẩm nặng bao nhiêu?
इस पैकेट का वजन कितना है?
Tôi gửi bưu phẩm bằng máy bay được không?
क्या मैं इसे हवाई डाक से भेज सकती हूँ?
Bao nhiêu lâu mới đến?
इसे पहुंचने में कितना समय लगेगा?
Tôi có thể gọi điện thoại ở đâu?
मैं फोन कहां से कर सकती हूँ?
Trạm điện thoại công cộng gần nhất ở đâu?
सबसे नजदीक टेलीफोन बूथ कहाँ है?
Bạn có thể điện thoại không?
क्या आपके पास टेलीफोन रिचार्ज कूपन है?
Bạn có danh bạ điện thoại không?
क्या आपके पास टेलीफोन डायरेक्टरी है?
Bạn có biết mã điện thoại của nước Áo không?
क्या आपको ऑस्ट्रिया का प्रदेश कूट क्रमांक मालूम है?
Chờ một chút. Tôi xem lại.
एक मिनट रुकिए, मैं देखती हूँ.
Đường dây lúc nào cũng bận.
Line व्यस्त जा रही है.
Bạn đã gọi số nào?
आपने कौन सा क्रमांक मिलाया है?
Bạn phải gọi số không trước.
सबसे पहले शून्य लगाना होता है।